पावमाने स्वस्तजने सुदुखादिभिरश्रुताः ऋषिभिः संवृतो रसो ब्राह्मणेष्वमृतम् हितम् पावमानेऽद्दिशन्तुनैवम् लोकमथो अमुम् कामान् समर्थयन्तु नो देवीर्देवैः समाहिताः येन देवाः पवित्रेणात्मानम् पुनते सदा तेन सहस्रधारेण पावमान्यः पूनन्तु माम् राजापत्यम् पवित्रम् सतोद्यामम् निरन्वयम् तेन ब्रह्मविदो वयम् भूतम् ब्रह्म पुनीमहे इन्द्रस्वनीति सहमा पुनातु सोमः स्वस्त्या वरुणः समीच्या यमो राजा प्रवृणाभिः पुनातु मा जातवेदा मोर्जयम् द्यावृणातु ऋषयस्तु तपस्तेवः सर्वे स्वर्गजिगीषवः तपसस्तपसो गृहन्तु पापमानेरचो ब्रवीत् जन्मे गर्भे वसतः पापमुग्रम् यज्जायमानस्य च किञ्चिदन्यत् जातस्य जयच्चापि च वर्धतो मे दत्त्वा पापमानेभिरहम् पूनामि माता पित्रोऽन्यकृतम् वचो मे यस्सा वरम् जङ्गम मा बभूव विश्वस्य तत्प्रागृषितम् वचो मे तत्पावमानेभिरहम् पूनामि गोग्रास्तस्करत्वात् श्रीवधात्यच्च गिल्भिरम् पापकम् च चरणेभ्यस्तत्पावमानेभिरहम् पूनामि ब्रह्मदात् सुरापानात् स्वर्णस्ते यादृशमनमेतुनसङ्गमात् गुरोर्दाराधिगमनाश्च तत्पावमानेभिरहम् पूनामि बालघ्नान् मातृपितृवधात् भूमितस्करात् सर्ववर्णगमनमैथुनसङ्गमात् आदेभ्यश्च प्रतिग्रहात् सद्यः प्रहरलि सर्वदुष्कृतम् तत्पावमानेभिरहम् पूनामि क्रयविक्रयाद्योनि दोषाद्भक्षाद्भोज्यात् प्रतिग्रहात् असम्भोजनाश्चापि नृशंसम् तत्पावमानेभिरहम् पूनामि दुर्यष्टम् दुरधीतम् पापम् यच्चाज्ञानतो कृतम् अयाजिराश्चासंयाज्यास्तत्पावमानेभिरहम् पूनामि अमन्त्रमन्नम् यत्किञ्चिद्धूयते दहुतासने संवत्सरकृतम् पापम् तत्पावमानेभिरहम् पूनामि मृतस्य यो न यो मृतस्य धाम विश्वा देवेभ्यः पुण्यगन्धाः आनावप्रवहन्तु पापम् शुद्धा गच्छामि सुकृतामलोकम् तत्पावमानेभिरहम् पूनामि पावमाने स्वस्तय निर्याभिर्गच्छति नान्दनम् पुण्यान् स भक्षान् भक्षयत्यमृतत्वम् च गच्छति पावमाने पितृन् देवान् ध्यायेद्यश्च सरस्वती पितृन् तस्योपवर्ते दक्षीरम् सर्पिर्मधूदकम् पावमानम् परम् ब्रह्म शुक्रम् ज्योतिः सनातनम् ऋषेम् तस्योपतिष्ठेत क्षीरम् सर्पिर्मधूदकम् पावमानम् परम् ब्रह्म ये पठन्ति मनीषिणः सप्तजन्म भवेद् विप्रोधनाड्यो वेदपारकः दशोत्तरान्नृजांस्तैव पावमाने शतानि षट् ये तज्जुह्वम् जपेन्मन्त्रम् घोरम् मृत्युभयम् भवेत् देवमच्छामधो मन्दयिन्धवो शश्वदन्तकामहानधेनवाः परिषदो वचनावन्तभूतभिः परिश्रुतमुश्र्या निर्निजम् दिरे सरोरोपदभिपूर्वा अधिक्रतनुभारुरश्रथयन् स्वादते हरिः ఇరః పవిత్రం పరియన్నురజ్రయో నిసర్యాని దధతే దేవావరం యోమవేయమ్యా సంయతి మదస్సాకం వృధాపయసా బింధదక్షీతా మహీ ఆపారే రజసి వివేవి దదభివ్రజన్నక్షీతం పాద ఆదదే సమాతరాభిచరం పాదయం ప్రమేధీరస్వధయా బిన్వతే పదం అంశుర్యవేన పిపిశే యతో నృభిః సంజామిభిర్న స తే రక్షతే శిరాః సందక్షేణ మనసా జాయతే కవిర్హృదస్య గర్భో నిహీతో యమాపరః యూనాః సంతా ప్రథమం విజజ్ఞ దుర్గుహాహితం జనీమనే మముద్యతం మంత్రస్య రూపం విదుర్మణీషిణశ్యేనో జదంతో అభరత్పరావతాః సమ్మర్జయంత సుహృతం నదీష్వాసందంశుం పారయంత మృగ్మియం ఆమ్రేజంతి దశయోషనశ్రుతం సోపరిషేభిర్మతిభిర్దేతిభిర్హితం అవ్యోవారేభిరుత దేవహూతిభిర్నృభిర్యతో వాజమాదర్ణి సాతయే పరిప్రయంతం వయ్యం సుషంసదం సోమం మనీషా అభ్యనూషతస్తుభా యోగారజా మధూమా ఊర్మిణాదివయ్యర్తివాచం ప్రయుషాలమర్త్యః అయం దివయీయర్తి విశ్వమానజః సోమః పురాణః కలశేషు సీదతి అర్భిర్గోభిర్మృజ్యతే అద్రిభిః సుతః పురాణ ఇందుర్వరీవో విదద్రియం ఏవానః సోమ పరిషిచ్యమానోపజోదశ్చిత్రతమం భవస్వ అద్వేషేద్యావా పృథివీ హూవేమ దేవా దత్తరయిమస్మే సువీరం యుషర్నధన్వన్ ప్రతిధీయతే మతిర్వత్సో న మాతురుప సద్యూధని ఉదహారేవ దుహే అగ్ర ఆయత్య సంవ్రతేష్వపి సోమయిష్యతే ఉపో మతి పృచ్యతే సిచ్యతే మధు మంద్రాజనీ శోదతే అంతరాసని అపమానః సంతనిః ప్రఘ్నతామీవ మధూమాన్ రప్సః పరివారమర్షతి అవ్యే వధూజుఃపమతే పరిత్వతిశ్రధ్నీతే నప్తీరీతే ఋతం యతే హరిరక్రాణ్యజతః సంయతో మదో నృమ్నాసి సా నో మహిషో న శోభతే ఉక్షామీ మాది ప్రదీయంతి ధేనవో దేవస్య దేవీరుపాయంతి నిష్కృతం అత్యక్రమేదర్జునం వారమవ్యయమత్కన్న నిక్తం పరిసోమో అవ్యత అమిక్తే నరుష తావాస సా హరిరమర్త్యో నిర్నిజానః పరివ్యత దివస్పృష్టం బర్హణా నిర్నిజే కృతోపస్తరణం జంబోర్న భస్మజం సూర్యస్యేవ రశ్మయోద్రావయిత్నవో వత్సరాసః ప్రసుభ స్వాకమీరతే అనందం రథం పరిసర్గా స ఆశభోనేంద్రా ధృతే పవతే ధామ కించన సింధోరివ ప్రవణే నిమ్న ఆశభో వృషచ్చుతామదాసో గాతుమాసత షన్నో నిమేషేద్విపదే చతుష్పదే స్మేవాజా సోమతిష్టంతు కృష్టజాః ఆనఃపవస్వసో మద్ధిరణ్యవదస్వా మద్గో మద్యవ మత్సువీర్యం యూయం నిశోమపితరో మమస్తన దివో మూర్ధాన ప్రస్థితామయస్కృతాః ఏతే సోమాః పవమానా స ఇంద్రం రథా ఇవ ప్రజాయుః సాధిమచ్చ సుదాః పవిత్రమతీయంతవ్యం హిత్వీవవ్రిం హరితో వృష్టిమచ్చ ఇందవింద్రాయ బృహతే పవస్వ సుమృళీకో నవద్యోదిషాదాః భరా చంద్రాణి గృణతే వసూని దేవైర్ద్యా వా పృథివీ ప్రావతం నః త్రినస్మై సప్తధేనవో దుదుహ్రే సత్యాభాసిరం పూర్వే వ్యోమని చ तत्त्वान्यन्या भुवनानि निर्निजे चारूणि चक्रेज हृतैरवर्धत समीक्षमानो अमृतस्य चारूण भुभेद्या वा काव्येनाभिसस्रते ये जिष्टा अभो मङ्गना परिञ्जत यदि देवस्य श्रवासा सदो विदुः देहस्य सन्त केतवो मृत्यमोदाभ्यासो जनुषी उभे अनु देभिर्नृम्णा च देव्या च पुनरादिद्राजानम् मननाः अगृभ्रत संयुज्यमानो दशभिः सुकर्माभिश्रमध्यमासो मातृषु प्रमे स च मृतालीपानो अमृतस्य चारु न उभे नृचक्षानो पश्यते विशौ समर्मृजान इन्द्रिया यदाय सवोभे अन्तारोदसी हर्षते हितः मृषासुष्णेन बाधते विदुर्मदीरादेशानस्तर्जहेव सुहृदाः समातराणदृशानभुश्रियो नान ददेति मरुतामिव स्वनः जानन्दृतम् प्रथमम् यत्स्वन्नरम् प्रशस्तजेकमवृणीत सुक्रतोः रुपती भीमो वृषभस्तभिष्यया शृङ्गेशिषाः नो हरिणी विचक्षणः आयो निंसोमस्सुकृतम् निषीदति गव्ययी त्वग्भवति निर्निगव्ययीः सुजः पुनानस्तन्वमरेव समव्ये हरिर्न्यधाविष्टसा नवि जुष्टो मित्राय वरुणाय वाजवे त्रिधातु मधुक्रियते सुकर्मभिः अवस्व सोमदेववीतये वृषेन्द्रस्य हार्दी सोमधानमावीश पुराणो बाधाद्दूरिरादिवारयक्षेत्रविद्युदिशाः विपृच्छते हितो न सप्तिरभिवाज भर्षेन्द्रस्येन्दो जठरमापवस्व नारायणसिन्धुमतीवर्षि विद्वाञ्छूरो न युद्धन्नवनो निदस्पाः आदक्षीणा सृज्यते सुष्ण्या आसतम् वेति द्रुवो रक्षसः पातिजाग्रीभिः हरिरोपसङ्ग्रेण तेन भस्मजमुपस्थिते चम्बो ओर्ब्रह्म निर्मिजे प्रकृष्टिहेव सूषये तिरोरुपदसुर्या अम्बर्णम् निरीणीते अस्य तम् जगादिपव्रम् पितुरे वयष्कृतमुपप्रतम् कृणुते निर्निजन्तना अद्रिभिः श्रुतः पर्वते गभश्चोर्षायते नभसा वेपते मती समोदतेन स ते साधते गिराणे निक्ते अप्सु यजते परीमणि परिद्युक्षम् सहसः पर्वतावृतम् मध्वस्सिञ्जन्ति हर्म्यस्य सक्षणिम् आयस्मिङ्गावः सुहृतादबूधानि मूर्ध्वम् क्षेणन्त्यग्रियम् वरीमभिः समीरछन्न भुरुजो रहेण तदसस्वसारो अधीते रूपस्था जिगादुपज्रयधिगोरभीच्यम् पदम् यदस्य मधुधा अजीगरन् श्येनो न यो निंसदनम् धिया कृतम् हिरण्ययमासदम् देवयेषति ये रीणन्ति बर्हिषि प्रियम् गिरा शोलदेवाङ्गप्येति यज्ञियाः पराव्यक्तो अरुणो दिवः कविर्मृषा त्रिपृष्ठो अनविष्टगा अभि सहसनीतिर्यति परायति रेभो न भूर्विरुषसो विराजति एनम् रूपम् त्रेणुते वर्णो अस्य स यद्रास यत्सम्विदासेधति श्रियः अप्सायादिस्वधया दीव्यञ्जनम् संसुष्टुतीन स ते सङ्गो अग्रया उक्षेप यूथापरियन्नलाभीदधिद्विषीरधितसूर्यस्य दिव्यः सोपर्णावदक्षदक्षाम् सोमः परिक्रतूनापश्यतेजाः हरिम् रञ्जर्षो न यज्यते सन्धेनभिः कलशे सोमो अज्यते उद्वाच मीरयदि हिन्वते मतीपोरुष्टुतस्य कदीचित् परिप्रियाः साकम् वदन्ति बहवो मनीषि न इन्द्रस्य सोमम् जठरे यदा गुः यदि मृजन्ति सुखभस्तयो नरः स नीलाभिर्दशभिः काम्यम् वधु अरममानो अत्येदिगा अभिसूर्यस्य प्रियम् दुहितस्थिरोरमम् अन्वस्मै जोषामभरद्रिणम् गृहः सन्धुजीभिश्वसृभिः क्षेति जामिभिः ऋद्धूतो अद्रीषुतो बर्हिषु प्रियःपतिर्गवाम् प्रतिभगेन्दुर्ऋद्विजाः पुरन्धि वाम् मनोषो यज्ञसाधनः सुचर्धिया पावते सोमा इन्द्रते ृभ्याम् चोदितो धारया सुतो रश्वसम् पावते सोम इन्द्रते आप्राक्रतून् समजैरध्वरे मदीर्वेर्न दृढश्चम्बो ओराज दद्धरीः हंसम् दोहन्ति स्तनयम् दमक्षीरम् कविम् कवयोपसो मनीषिणाः समीगावो मतयो यन्ति संयत ऋतस्य यो नासदने पुनर्भुवाः नाभा पृथिव्या धरुणो महो दिवो ओपामोर्मौ सिन्धुष्वन्दरुक्षितः इन्द्रस्य वज्रो वृषभो विभुव सुसोमो हृदेवावते चारु मत्सरः स तूपावस्वपरिपार्थिवम् रजस्तोत्रे शिक्षन्नाधोन्मते च शुक्रतो मानो निर्भाग्वसूनः स्वादनस्पृशो रजम् विशङ्गम् बहुलम् वासीमहि आदून इन्दो सदधात्वस्यम् सहस्रधातुपसुमद्धिरण्यवत् उपमास्व बृहतीरेवतीरिषोधिस्तोत्रस्य पवमाननोगहि श्रक्वे द्रप्सस्य धमनः समस्वरम् हृदस्य यो नासमरन्दनाभयः त्रेन् समूर्ध्नो असूरश्चक्र आरभे सत्यस्य नामः सुकृतमपीपरन् सम्यक् संयन्तो महिलाहेतसिन्धोरोर्मावधिवेनाविपन् मधोर्धाराभिर्जनयन् अर्कमे त्रिजामिन्द्रस्य तन्वामविवृधन् पवित्रवन्तः परिवाचमासते पितैषाम् रत्नो अभिरक्षसि व्रतम् अहस्य मुद्रम् वरुणस्तिरोदधे धीरायुच्छे गुर्धरुणेष्वारभम् सहस्रधारे वते समस्वरम् दिवो न के मधुजिह्वासश्चताः अस्य स्पसो न निमेषन्ति भूर्नायः पदे पदे पाशिनः सन्ति सेतवः विदुर्मातुरध्याये समस्वरन्विता शोचन्तः सन्दहन्तो अव्रतान् इन्द्रद्विष्टामपधमन्ति मायया त्वचमसिग्नीम् भूमानो दिवस्परि रत्नान्मानादध्याये समस्वरान् श्लोकायन्द्रासोरभसस्य मन्दवः अवानक्षासोऽवधिराः सदहृदस्य पन्थाम् न धरन्ति दुष्कृताः सहस्रधारे विदधे पवित्रावाचम् पुनन्ति कवयो मनीषिणाः रुद्रादयेषामिषिरासो अद्रुहस्पसस्पञ्च सुदृशो नृचक्षसः ऋतस्य गोपानदभाय सुक्रतस्त्रेष पवित्रा हृद्या अन्तराधते विद्वान् स विश्वाभुवनाभिपश्यत्यवाजुष्टान्निध्यति कर्ते अव्रतान् ऋतः सतन्तर्विदः पवित्रा जिह्वाजा अग्रे वरुणस्य मायया धीरास्तित्सत्समिनक्षन्तः सदात्रा कर्तमवपदात्यप्रभुः शशुर्न जातो वचक्रतद्वने स्वार्यद्वाज्यरुढशिषा सति दिभोरेत सा सजते पजो वृधातमीमहे सुभति शर्म सप्रथाः दिवो यस्कम्भो धरुणस्वा तत आपूर्णा अंसः पर्येति विश्वतः से मे महीरोदसी यक्षता वृथा समीचीने धाधारसमिषः कविः अयेत्सरस्सुकृतम् सौम्यम् मधूर्वी गव्यो दिलीतेर्हृतम् यते ीशेयोभिश्चेतमुश्रियो वृषापान्नेताय हितभूतिर्हृग्मिजा आत्मन्वन्नभो दुह्यते घृतम् पच घृतस्य नाभिरमृतम् विजायते समीचीरासुरानवः प्रीणन्ति तम् नरो हितमवमेहन्ति प्रेरवः ीधंसस्य च मानभूर्मिणा देवाव्या अम्मनुषे पिन्दसि त्वजम् तथा दिगर्भमदीते रूपस्थायेन तोकम् च तनयम् च धामहे सहस्रधारे भता सश्च तस्तृतीये सन्तुरजसि प्रजावतीः ततस्रो नाभो निहिता अवो दिवो हविर्भरन्दमृतम् घृतश्चुराः चेदम् रूपम् कृणुते यत्सिषा सति सोमो भेड्वा असूरो वेदभूमनः या समीसजते सेमभिद्रवद्दिवस्कवन्दमवदर्शदुद्रिणम् अधश्वेतम् कलसम् गोभिरक्तम् काष्पन्ना भाज्यक्रमे स्वसवान् आहिन्विरेवना सा देवयम् दः कक्षीव ते सतहीमा जगोनाम् अद्भिस्वामपृजानस्य ते रसो व्योमारम् विपमान धावति समृज्यमानः कविभिर्मदिन्दमस्वधस्वेन्द्राय पवमान पीतये अभिप्रियाणि पवते जनो हितो नामानि यह्वो अधियेषु बध्वते आसूर्यस्य बृहतो बृहन्नधिरथम् विश्वम् च मरुहद्विचक्षणः ऋतस्य जिह्वा पापते मधुप्रियम् वत्सापतिर्धियो अस्यादाभ्यः दधादिपुत्रः पित्रोरपीच्या अन्नाम तृतीयमधीरोचने दिवः अवद्युधानः कलशाङ्गचिक्रदन्द्रभिर्येमानः कोशाहिरण्यजे अभिमृतस्य दोहना अनुषदाधित्रिभृष्टभुषसो विराजति अद्रिभिः सुतो मतिभिस्तनो हितप्ररोचयन् रोदसी मातरा शुचिः रोमाण्यव्या समया विधावधिमधोर्धारा बिम्बमाना दिवे दिवे अरिसोमप्रधल्वा स्वस्तयेभिः पुनानो अभिवासयाशिरम् एते मदा आहनसो विहायसस्तेभिरिन्द्रम् चोदयदातवे मघम् भद्रम् नो अपि वादयमनाः ओ हरिः ओ धर्तादिवः पवते कृत्यो रसो दक्षो देवानामनुवाद्यो नृभिः अरिसृजानो अत्यो न सत्त्वभिर्वृथा पाजाम् शिगणते नदीष्वा सूरो न धत्तायुधागमस्यो स्वा अशिषा संरथिरोगविष्टिषु इन्द्रस्य सुष्मभिरयन्नपस्युभिरिन्दर्हिन्वानो अज्यते मनीषिभिः इन्द्रस्य सोमपवमानभूर्मिणात विश्वमानो जठरेष्वावीश प्रणः पिन्वभिद्युदभ्रे वरोदसी हियानवाजाम् उपमासि सस्वतः विश्वस्य राजा पवते स्वर्दृशहृदस्य धीतिवृषिषाणवीवसत् यस्योर्यस्याशीरेण भृज्यते पितामधीनामसमष्टकाव्यः ृषेवयूतापरिगोचवर्षस्य पामुपस्थे वृषभक्कणिक्रदते सरिन्द्राय पवसे मत्सरिन्दभो यथा जेषामसमिथे तोदयः तेन प्रकोशे मधूमाजिक्रदलिन्द्रस्य वज्रो वपुषो वपुष्करः अभिवृतस्य सुदुघाघृतश्च्युतो भास्रार्षन्ति पजासे मधेनवः सपूर्यः पावते यन्ति वस्परिश्येनो मथायति शिरस्थिरो रजाः समद्भायोगदेवे बीजानयत्कृशानोरस्त्वर्मनसाः बिभ्युषाः तेन पूर्वा सगुपरास इन्दवो महे वाजाय धन्वन्तु गोमाते ईक्षेण्यासो अह्यो ओनचारभो ब्रह्म ब्रह्मजेजो जुषुर्हविर्हविः अयन्ना विद्वानवद्वनुष्यत इन्दुः सत्रा चामनसा पुरुष्टुतः इनस्यः सदने गर्भमादधे गवामरुब्जमभ्यर्षजव्रजम् चक्रर्दिवः पवदे कृत्यो रसो महालब्धो वरुणो हुरुज्यते मित्रो विजनेषु यज्ञयोग्यो न जूते वृषयः कनिक्रदति राजा वाचम् जनयन्नशिष्यत तपोपसानो अभिगायी यक्षति ऋभ्राति ऋप्लमवीरस्य तान्वा शुद्धो देवानामुपाजाति निष्कृतम् इन्द्राय सोमपरीषिच्यसे नृभिर्नृदक्षाः भूर्मिः कविरज्यसे वने भूर्वीर्हिते श्रुतयः सन्ति जातवे सहस्रमस्वाहरायश्च भूषदाः समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोम वक्षरल् आयीम् हिन्वन्ति हन्यस्य सक्षणिम् जाचन्ते सुम्नम् भवमानवक्षीतम् गोजिन्नः सोमो रथजिद्धिरन्यजत्स्वर्जितब्जत्मापदे सहस्रजित् यम् देवासश्चक्रिरे पीतजेवदम् स्वादिष्टम् धप्समरुणम् माजो भुवम् एतानि सोमपवमानो अस्मयः सत्यानि कृण्वन्द्रवीणान्यर्षसि यगि शत्रो मन्दिके दूरके जय उर्वीम् गव्योधिमभयम् जनस्कृधि अशोदसो नोदन्वन्तिन्दवप्रसु बालासो बृहद्दीपेषु हरजः विजनसन्नयिषो अरातयोर्यो न सन्दसनीषन्तनोधियाः प्रणोधन्वन्त्विन्दवो मदच्युतो धना वाजेभिरर्वतो जुनीपसि शिरोमर्थस्य कस्य जित्परिहृदिम् वयम् धनानि विश्वधा भरे महि उदस्वस्य अरात्या हरिर्गिड उदान्यस्य अरात्या मृगोहिडः धन्वन्न दृष्टा समवीतता अभिसोम जहि पवमानदुराध्याः दिविते नाभा परमोजादते पृथिव्यास्तेरुहस्सान विक्षिपाः अद्रायस्त्वामप्सधिगोरधिपच्या अप्सुत्वामस्तैर्दुदुहर्मनीषिणाः देवाद इन्दो शुभ्रम् सुपेश संरसम् गुञ्जन्ति प्रथमाभिश्रियाः इदम् इदम् पवमाननिदारिष आविस्ते सुष्मो भवतु प्रियो मदाः सोमस्य धारा भवते विचक्षसरितेन देवान् भवते दिवस्परि बृहस्पते रमथेन विद्युद्युते समुद्रा सोनसवनानि विव्यजुः यन्त्वा वाजिन्नज्ञाभिरोषदायो हतञ्जो निवारोहृद्युमान् मघो नामाय प्रचरम् महेश्रव इन्द्राय सोमपवसे वृषामदाः देन्द्रस्य गुक्षापवसे मदिन्दमहूर्जम्बसा नश्रवसेषु मङ्गलाः रत्यान् सविस्वाभुवनाभिपप्रथेलङ्घरिरत्यस्यन्दते वृषा सम्पा देवेभ्यो मधुमत्तमङ्गलः सहस्रधारम् दुहते दशक्षिपाः सोम प्रच्युतोग्रामभिस्तुतो विश्वाम् देवाम् आपावस्व सहस्रजित् हस्ति नो मधुबन्धवद्रे बर्जुहन्त्यत्सवेषबन्धसक्षिपाः इन्द्रम् सोममादयम् देव्यञ्जनमि सिन्धो रिभोर्मिः पवमानो अर्षसि सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरम् सुपेशसः दद्राय धीमुन्नीताय सागवाम् दानाय सूरबुतमन्दिडस्रुताः अच्छाहि सोम कलशाङ्गशिष्य ददत्यो न मूढा रघुवर्तनिर्मृढा अथा देवानामुभयस्य जन्मानो विद्वाङ्गश्रोत्यमुदयितश्च यत् आणः सोमपवमानः किरावस्मिन्दो भवमघवाराध सोमः शिक्षावयोधोपस वेषु चेतु नामानो गजमाने अस्मत्परासिजः आनः पूर्णापवमानः सुरादयो मित्रो गच्छन्त्युपरुणः सजोषसः बृहस्पतिर्मरुतो भाजुरश्विना त्वष्टा सविता सुजमा सरस्वती वेद्या वा पृथिवी विश्वमिन्वे अर्यमा देवो अधितिर्विधाता भगोरिसं स उर्वा अन्तरिक्षम् विश्वे देवाः पवमानम् जुषन्त असाभिसोमो अर्षो वृषाहरीराजेवदस्मो अभिगाचिक्रदत् पुरानो वारम् पर्येत्यव्ययम् श्येनो न योनिम् घृतवन्तमासदम् कविर्वेदस्यापर्ये शिवाहीनमत्यो न मृष्टो अभिवाचमर्षसि अवसेधम् दुरितासो ममृणय घृतम् वसा नः परीयासि निर्निजम् पर्जन्यः पितामहितस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयम् दधे स्वसारापो अभिगाहुता स रान्सङ्ग्रामभिर्नसते भेदे अध्वरे याजे भवत्यावधिसेव मङ्घसे वज्राजागर्भसृणिः ब्रवीमिते अन्तर्वाणीषु प्रचरासु जीवसे निञ्जो विचने सोमजागृः यथा पूर्वेभ्यः सदसा अमृद्रस्सहस्रसा पर्ययावाजमिन्दो देवापवस्वसुविता जनव्यसेतमम् व्रतमन्वापस्वजन्ते पवित्रम् देवितदम् ब्रह्मणस्पते प्रभुर्गात्रादिपर्येषि विश्वतः अदप्ततनोर्नदधामो अश्रुते सुराधयिद्वहम् तस्तत्समासत तपोष्पवित्रम् विदतम् दिवस्पते शोचन्तो अश्वदन्त भोव्यस्थिरन् अमन्त्यस्य बवीतारभासवो दिवस्पृष्ठमधितिष्ठन्ति चेतसा अरोरुचतुषस प्रश्नीरघ्रियभुक्षा विभर्ति भुवनानि वाजयोः मायाविनो ममिरे अस्य मायजाः निजक्षसः पितरो गर्भमादधो गन्धर्व इच्छा पदवस्य रक्षति पाति देवानाम् द्विनिमान्यद्भूतः गृह्णादिरिपुम् निधया निधापतिः सुकृत्ता मा मधूनो भक्षमासत अविर्हविष्मोमहि सद्वदेव्यम् न भोपसा नः परीयास्यध्वरम् राजा पवित्ररथो वाजमारुह सहस्रभृष्टरुदयसि श्रवो बृहत् अवस्वदेवमादनो वितर्षनिरप्सा इन्द्राय वरुणाय वाजवे कृधीयो अद्यवरीव स्वस्य मधुरक्षिलो व्रेणीयञ्जनम् आयस्तस्थो भुवनान्यमत्यो विश्वानि सोमत्परितान्यर्षति कृण्वान् सन्धृतम् विश्रुतमभिष्टाय इन्द्रश्रिडक्युडसन्न सूर्याः आयोगो विसृज्यतमोषधीष्वा देवानाम् सुन्न विषयन्नुपावसुः आदिद्युता भवते धाराया सुत इन्द्रम् सोमो मादयम् दैव्यञ्जनम् जेणस्य सोमः पवते सहस्रजिद्धिम् बाणो वाच विषिरामूषद्भुतम् इन्दस्वमुद्रमुदीयत्ति वायुभिरेन्द्रस्य हार्दिकलशेषु सीदति अभिद्यङ्गापजसापजो वृथम् क्रीणन्ति मदिभिः स्वर्पितम् धनञ्जयः पावते कृत्यो न सो विप्रः कविः काव्येनास्वर्चनाः इन्द्राय सो वसुषु नः परिश्रमापामी वा भवतु रक्षसा सह मा ते रसस्य मत्सदग्नया विनो द्रवीणस्वन्त इह सन्विन्दवः अस्मान् स वर्ये पवमानचोदयदक्षो देवानामसि हि प्रियो मदः इहि शत्रोऽभ्याबन्धनायतः पिबेन्द्रसो मम वनो वृधो जिहि अदब्ध इन्दोपवसे मदिन्दम आत्मेन्द्रस्य भवसि दाशरुत्तमः अभिस्वरन्ति बहवो मनीषिणो राजा नमस्य भुवनस्य निंसते सहस्रणीतः सदधारो अद्भुत इन्द्रायेन्द्रः पवते काम्यम् मधु जयम् क्षेत्रमभ्यर्डाजयन् नवपुरुन्नो घातुम् कृण सोममीढ्वः कणिक्रदत्कलसे गोभिरज्जसेव्याजयम् समयावारवर्षसि मृज्यमानो अत्यो नसा नसिलिङ्गस्य सोमजठरे समक्षरः स्वादुःपवस्व दिव्याय जन्माने स्वादुरिन्द्राय सुभवीतुनाम्ने स्वादुर्मित्राय वरुणाय भाजवे बृहस्पतये मधुमाङ्कलाभ्यः सत्यम् मृजन्ति कलशेदसक्षिपः प्रविप्राणाम् मदयो वाच जीरते अपमाना अभ्यर्णन्ति दुष्टुदिमेन्द्रम् विशन्ति महिरास इन्द्रवः अपमानो अभ्यर्डा सुवीर्यमुर्वीम् गव्योतिम् महि शर्म सप्रथाः अस्य परीषु दिलीशतेन्दोजये मत्वजा धनम् धनम् अधिद्यावस्तादृषवो वीचक्षणोरोतद्विजिगोरोचरा कविः राजा पवित्रमध्ये गिरोरो मद्यमस्पीयूषम् दुहते ऋचक्षसः दिवो नाके मधुजिह्वा असश्चतो वेनादोहम् चुक्षणम् गिरिष्ठाम् अनसुद्रत्सम् वा दधानम् स मुद्रा सिन्धोरोर्मा मधुमन्तम् पवित्रा नाके सुपर्णमुपपत्तिवाम् सङ्गिरो वेनामकृपन्तपूर्वीः शिशुम् देहन्ति मदयः पणिप्रदम् हिरण्ययम् सगुणाम् क्षामनिष्ठाम् ऊर्ध्वो गन्धर्वो अधिराजे अस्ताद्विश्वारूपात्मधिलक्षाणो अस्य भानुः शुक्रेण सोजिषाव्यद्योत्प्रारोरुजद्रोदसी मातरा शुचिः रत आसवः पवमानधीजपो मदा अर्णन्ति रघुजाजी पद्मना दिव्याः सुपर्णा मधुमन्द इन्दवो मदिन्द मासः परिभाषमासते रथे मदा सोमधिराज आसवो दृक्षदरच्छा सो यथा पृथक् धेनुर्न भत्सम्भज सापि वज्रणमिन्दमिन्दवो मधुमन्दभूर्मजाः अत्यो न हि यानो अभिवाज वर्णः स्वर्वित्कोशम् दिवो अद्रीमातरम् पवित्रे अधिदानो अव्यये सोमः पुराण इन्द्रियायजाजसे प्रदाश्विनेः पवमानधीजमो दिव्याश्रघ्रन्वय साधरीमणि प्रान्तर्षयस्थावीरीरसृक्षतये त्वा भजन्त्रेषिषान वेधसाः निःसाधामानि विश्वचक्षर्भासप्रभोस्ते सतः परीयम् निकेतवाः यानसि पावसे सोमधर्मा विप्पदर्विश्वस्य भुवानश्च राजसि उभयदप्पमानस्य रश्मयो ध्रुवस्य सदः परीयन्ति केतवाः यदी पवित्रे अधिव्रजते हरिः सत्तानि यो ना कलशेषु सीदति यज्ञस्य केतुः पावते स्वध्वरः सोमो देवानामुपजाति निष्कृतम् सहस्रधारपरिकोशवर्षदिवृषा पवित्रमत्ये धिरोरूपत् राजा समुद्रम् नद्यो गोपिकाशते पामूर्मिम् सजते सिन्धोरश्रितः मध्यस्तात् सानुपमानो अव्ययम् नाभा पृथिव्या धरुणो महो दिवः दिवो न सानस्तनयम् न चक्रधद्यौ स्तयस्य पृथिवी च धर्माभिः इन्द्रस्य सख्यम् पावते विवेवी तत्सोमः पुनानः कलशेषु सीदति ज्योतिर्यज्ञस्य पवते मधुप्रियम् पिता देवानाम् जनिता विभूवसुः रात्रम् सुतयोरभीच्यम् मदिन्दमो मत्सर इन्द्रियोरसाः अभिक्रन्दन् कलशम् वाज्यर्षधिपतिर्दिवशतधारो विचक्षणः हरिर्मित्रस्य सदानेषु सीदतिमर्मृगानो विभिः सिन्धुभिर्मृगाः अग्रे सिन्धूनाम् पवमानो अर्हत्यग्रे वाचो अग्रियोगोषु गच्छति अग्रे वाजस्य भजते महाधनम् स्वायुधः स्वोतृभिः पूयते मृगाः अयम् मतवाञ्चगुनो यथा हितो व्ये सदारपवमानभूर्मिणा तव क्रत्वारोदासी अन्तराकवे सुधिया पावते सोमा इन्द्रते नाबिम्बसा नो यजतोति विस्मृतमन्तरिक्षप्राभुवानेष्वर्पीतः सर्जज्ञानो नभसाभ्यक्रमेत् प्रत्रमस्य विदरमाविवासति सो अस्य विषेमहि धर्म यच्छति यो अस्य धाम प्रथमम् यानसे परम् यदस्य परमे व्यो मन्यतो विश्वा अभिसंज्ञादिसंज्ञताः रोहायासीन्द्रविन्द्रस्य निष्कृतम् सखा सख्यम् न प्रमीणादिसङ्गिरम् पर्यायिव युवतिभिः समर्षति सोमः कलशे सतयाम् नापथा प्रबोधियो मन्त्रयुवो विपन्यवः पनस्युवः संवसानेष्वक्रमः सोमम् मनीषा अभ्यनोषदस्तु भोभिधेन पयसेमशिश्रयुः आनः सोमसञ्जनम् विप्युषेमिषमिन्दोपव स्वपवमानो असृधम् यानो दोहतेर्हन्नसस्तुषीष्वन्मधो मत्सुवीरम् ऋषामदीनाम् पावते विचक्षणः सोमो अन्नप्रतरीकोषसो दिवः घ्राणासिन्धूनाम् कलशाङ्गमेव सदिन्द्रस्य हार्द्या विषन्मनीषिभिः मनीषिभिः पवते भूर्यः कविर्नृभिर्यतः परिकोशाङ्गचिक्रजत् मृतस्य नाम जनयन्मधुक्षरदिन्द्रस्य वायो सख्याय कर्तवे अयम् पूनानपुषसो विरोचयदयम् सिन्धुभ्यो अभवद् लोककृते अयम् दृः सप्तदूदुहान आशिरम् सोमो हृदे पावते चारु मत्सरः सवस्व सोम दिव्येषु धामासुश्रानयिन्दो कलशे पवित्रः श्रीधन्विन्द्रस्य जठरे कलिक्रदन्द्रभिर्यतः सूर्यमारोहयो दिवि अद्रिभिः सुतः पवसे पवित्राङ्गिन्दविन्द्रस्य जठरे अश्वाभिषन् त्वम् विचक्षा अभवो विचक्षण सोम गोत्रमङ्गीरोभ्यो वृणोरप त्वाम् सोमपवमानम् स्वाध्यो न विप्रासो अमदन्नपस्य वाह त्वाम् सुपर्ण आभारद्दिवस्परीन्दो विश्वाभिर्मतिभिः परिष्कृतम् अव्ये पुनारम्भ परिवार पूर्मिना हरिम् नवन्दे अभिसप्तधेनवाः अपामुपस्थे अध्यायवः कविर्मृतस्य यो नाम हिराहेशता।